नमस्सर्वेभ्यः अद्य शिक्षावर्गे सप्तदशः पाठः अक्टोबर् मासस्य सप्तविंशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गतवर्गे वयं व्याकरणांशेषु विसर्गसन्धिं दृष्टवन्तः विसर्गस्य लोपः यत्र भवति ते नियमाः अस्माभिः अधीताः तेषाम् अभ्यासः अपि कृतः काव्यांशेषु सुभाषितद्वयं दृष्टं यः प्रीणयेत् सुचरितैः पितरं स पुत्रः यद्भर्तुरेव हितमिच्छति तत्कलत्रं तन्मित्रम् आपदि सुखे च समक्रियं यत् एतत्त्रयं जगति पुण्यकृतो लभन्ते इत्येकं प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः प्रियं कृत्वा मौनं सरसिकथनं चाप्युपकृतेः अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः सतां केनोद्दिष्टम् विषममसिधारा व्रतमिदं सुभाषितद्वयं दृष्टम् अद्यादौ पुनरावर्तनं किञ्चित् कुर्मः विसर्गस्य लोपः कदा भवति इत्यत्र त्रयः नियमाः सन्ति किल तत्र प्रथमः नियमः अह ह्रस्व अकारात् परस्य विसर्गस्य स्वरेषु परेषु ह्रस्वम् अकारं विहाय अन्येषु स्वरेषु परेषु लोपः भवति ह्रस्व अकारात् परस्य विसर्गस्य ह्रस्वाकारं विहाय अन्येषु स्वरेषु परेषु ह्रस्वे अकारे परे उत्वं भवति इति पूर्वमेव ज्ञातं किल रामः अपि सो पूर्वं परतः उभयत्र ह्रस्वः अकारः अस्ति चेत् उकारः भवति राम उ अपि गुणे पररूपे रामोऽपि इति भवति अन्येषु स्वरेषु परेषु लोपः भवति उदाहरणं किं वृक्षः एव अह इत्यस्ति एकारः अस्ति विसर्गस्य लोपे वृक्ष एव द्वितीयः नियमः अस्ति आह आकारात् परस्य विसर्गस्य स्वरे मृदुव्यञ्जने वा परे सो यः कोऽपि स्वरः अथवा यत्किञ्चित् मृदुव्यञ्जनं मृदुव्यञ्जनं सर्वे जानन्ति इति भावयामि प्रतिवर्गं तृतीयः चतुर्थः पञ्चमः वर्णः य र ल व ह एते वर्णाः मृदुव्यञ्जनानि इत्युच्यन्ते सो एतेषु परेषु दीर्घात् आकारात् परस्य विसर्गस्य लोपः भवति सो वृक्षाः अपि वृक्षा अपि वृक्षा इति वृक्षा एव इत्यादि सर्वत्र भवति तृतीयः नियमः सः एषः एतयोः विसर्गस्य यत्किञ्चित् वर्णे परे स्वरः वा मृदुव्यञ्जनं वा ह्रस्वम् अकारं विहाय कोऽपि वर्णः भवतु तस्य विसर्गस्य लोपः भवति सो स्वरे अन्येषु स्वरेषु परेषु भवति मृदुव्यञ्जनेषु परेषु भवति कर्कशव्यञ्जनेषु परेषु अपि भवति सो सः एषः इति पदद्वयमेव सः तत्र इत्यस्ति चेत् स तत्र सः गच्छति स गच्छति सः इति स इति ह्रस्वाकारे परे तु न भवति यथा अन्यत्र तथा तत्रापि उत्वं भवति सः अपि सोऽपि एते त्रयः नियमाः विसर्गस्य लोपे एतदपि सर्वदा स्मर्तव्यं विसर्गस्य लोपे कृते स्वरसन्धिः न भवति लोपानन्तरं अन्यः स्वरसन्धिः यथा वृक्ष एव अकारादिकारे परे ऐकारः वृद्धिः वृक्षैव इति न भवति वृक्षा अपि वृक्षापि इति सवर्णदीर्घसन्धिः न भवति कोऽपि स्वरसन्धिः न भवति विसर्गस्य लोपानन्तरम् एते अंशाः ज्ञाताः इदानीम् अभ्यासः सो अभ्यास ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु सो अभ्यासः सर्वैः ज्ञातः स्यात् द पाटर्न् अभ्यासस्य सो एकस्यैव पदस्य भिन्नेषु वर्णेषु परेषु किं भवति इति ज्ञातुं प्रयत्नः स्वयं प्रभा
बालः अपि
बालोपि सो अह ह्रस्वाकारे परे तत्र उत्वं भवति अतः बालोपि
बालः आगच्छति बाल आगच्छति
सम्यक् बाल आगच्छति अन्येषु स्वरेषु परेषु लोपः भवति बालः एव
अहं
वदतु
बाल एव
बाल एव अत्रापि अन्येषु स्वरेषु लोपः भवति
बालः प्लस् गच्छति बाल गच्छति
मृदु व्यञ्जने परे किं भवति अकारे परे उत्वं मृदु व्यञ्जने परे अपि उत्वं भवति बालः गच्छति बालः तत्र इदं न दृष्टम् अस्माभिः एतावता न अधीतं किं भवति
बालस्तत्र
सो सः भिन्नः सन्धिः धन्यवादाः सो ह्रस्व अकारात् परस्य विसर्गस्य अकारे मृदु व्यञ्जने वा परे उत्वं भवति किल प्रथमः सन्धिः दृष्टः सो बालोपि बालो गच्छति सो ह्रस्व अकारात् परस्य विसर्गस्य अकारे मृदु व्यञ्जने वा परे उत्वम् अन्येषु स्वरेषु परेषु ह्रस्वकारं विहाय अन्येषु स्वरेषु परेषु लोपः कर्कषव्यञ्जने परे सकारः भवति तत् श्वः पश्यामः अग्रिमः सन्धिः सः सो बालोपि बाल आगच्छति बाल एव बालो गच्छति बालस्तत्र सो पृथक् पृथक् सन्धिं जानीमः किन्तु लक्ष्ये एकत्र किं भवति इति ज्ञातुं सो मिलित्वा तेषां ज्ञानमपि अपेक्ष्यते सो दिस् इस् द फस्ट् सेट् यत्र अह ह्रस्वकारात् परः विसर्गः सो अग्रे दीर्घ आकारात् परस्य विसर्गस्य ये वक्तुमिच्छन्ति
गुड् मार्निङ्ग् श्रूयते वा
श्रूयते
बालाः अपि बाला अपि
सो बाला अपि सम्यक् सोरि
बालाः आगच्छन्ति बाला आगच्छन्ति
बाला आगच्छन्ति
बालाः एव बाला एव
बाला एव
बालाः गच्छन्ति बाला गच्छन्ति
बाला गच्छन्ति
बालाः तत्र बाला तत्र
त इति कर्कशव्यञ्जनम् बालास्तत्र इति सम्यक् स्वत्र पश्यन्तु दीर्घ आकारात् परस्य विसर्गस्य सर्वेषु स्वरेषु मृदु व्यञ्जनेषु वा सो कोऽपि स्वरः ह्रस्वाकारः दीर्घाकारः एकारः यः कोऽपि स्वरः अथवा मृदु व्यञ्जनं तत्र लोपः एव भवति कर्कशव्यञ्जने तु सकारः भवति सो सर्वत्र लोपः अस्ति गतवर्गे दृष्टं द्वितीयः एषः नियमः किल दीर्घ आकारात् परस्य विसर्गस्य कोऽपि स्वरः मृदु व्यञ्जनं वा भवति चेत् लोपः भवति अग्रे सुलोचना
नमस्ते सः प्लस् अभि सोऽपि
सोऽपि सो सः शब्दस्य ह्रस्वाकारे परे त्वं भवति सोऽपि
सः प्लस् आगच्छति स आगच्छति
स आगच्छति अन्येषु वर्णेषु परेषु लोपः स आगच्छति सः एव
स एव
स एव सः
गच्छति स गच्छति
स गच्छति
सः प्लस् तत्र स तत्र
स तत्र अत्र अकारं विहाय अन्येषु सर्वेषु वर्णेषु परेषु लोपः भवति अकारे परे तु उत्वं भवति सो सः अथवा एषः एतयोः विसर्गस्य ह्रस्व अकारं विहाय अन्येषु सर्वेषु वर्णेषु परेषु लोपः भवति ह्रस्व अकारे परे उत्वं भवति ज्ञातम् इति भावयामि केऽपि प्रश्नाः सन्ति वा अत्र यदि प्रश्नाः सन्ति तर्हि हस्तमुन्नयन्तु रामनाथ महोदय
प्रश्नः नास्ति प्रश्नः नास्ति
स्वयं प्रभा प्रश्नः अस्ति वा स्वयं प्रभा भगिनि
न प्रश्नः नास्ति
तर्हि अग्रे गच्छामः सन्धिं विभजत इति अभ्यासः एते सर्वेपि वाक्यखण्डाः संक्षेपरामायणात् उद्धृताः संक्षेपरामायणं सर्वे जानीयुः वाल्मीकिरामायणस्य प्रथमः सर्गः तत्र शतेन श्लोकैः सम्पूर्णस्य रामायणस्य कथा संक्षेपेण उच्यते अतः संक्षेपरामायणम् इति प्रसिद्धं सो ततः स्वीकृताः वाक्यभागाः एते ये वक्तुमिच्छन्ति कृपया पुनः हस्तम् उन्नयन्तु इफ् यु हाव् एनी ऐ मीन् दोस् हु वाण्ट् टु ट्रै प्लीज़् रेज़् ऐ हेड् लोवर्ड् एव्रिबडीस् हेण्ड्स् बिकास् क्वश्चन्स् सो कृपया पुनः हस्तम् उन्नयन्तु रामनाथ महोदय
सत्यवाक्यो दृढवृतः सत्यवाक्यः दृढवृतः
सत्यवाक्यः दृढव्रतः सम्यक्
स तेषां प्रतिषु श्राव
सः तेषां स तेषां सम्यक् धन्यवादः सो सतेषां सतिशुश्राव. सो अत्र सत्यवाक्यो दृढव्रतः इति वाल्मीकिमहर्षिः नारदं पृच्छति. अत्र कोन्नस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्? धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः. षोडश गुणान् उक्त्वा एते सर्वेपि गुणाः कस्मिन् सन्ति अधुना वर्तमाने लोके इति पृच्छति. सो सत्यवाक्यः, सो यः सर्वदा, यस्य वाक्यं सर्वदा सत्यं, सः सर्व सत्यवाक्यः. दृढव्रतः, व्रतः नियमः, कमपि नियमं स्वीकरोति चेत् दृढतया पालयति. दिनद्वयं कृत्वा तृतीयदिने न त्यजति. तादृशः दृढव्रतः. सतेषां प्रतिशुश्राव, यदा रामः वनं गच्छति तत्र ऋषयोभ्यागमन् सर्वे वधायासुररक्षसां, तत्र असुराः राक्षसाः अस्मान् बहु पीडयन्ति इति ऋषयः निवेदयन्ति. तेभ्यः सः नाम रामः प्रतिशुश्राव, सो प्रतिजानाति, प्रामिस् करोति किमिति, अहं तान् मानयामि इति. सतेषां प्रतिशुश्राव. अरुणा भगिनि, यू हैव टू अनम्यूट
योरसेल्फ. पीनवच्छा विशालाक्षो, पीनवच्छाः
पीनवक्षाः विशालाक्षः. सो अयमपि रामस्य वर्णनं नारदः वदति. सो पीनवक्षाः, पीनं वक्षः यस्य, यस्य वक्षस्थलं बहु विशालम् अस्ति सः पीनवक्षाः. दृढं उरः अथवा वक्षस्थलं तादृशः विशालाक्षः ज्ञायते. विशाले अक्षिणी यस्य, यस्य नेत्रे बहु विशाले तादृशः. अग्रिमम् भगिनि, स च सर्वगुणोपेतः. अरुणा भगिनि, न श्रूयते.
सः च सर्वगुणोपेतः, सः च सर्वगुणोपेतः.
सम्यक्. सो सः च सर्वगुणोपेतः. सो सः च, सो एतत् सर्वं पुनः रामस्य विषये एव. सो रामस्य वर्णनं कृत्वा सः च, सः रामः सर्वगुणोपेतः, सो सर्वैः सद्गुणैः सहितः इत्यर्थः. सो अग्रिमम् ललिता सिंह.
धन्यवादः, नमस्कार. दिस इज अ बिट डिफिकल्ट वन, आई थिंक बट आई ट्राई.
नो नो प्रॉब्लम. यस,
समुद्रः गम्भीरे,
गाम्भीर्ये, समुद्रः इव गाम्भीर्ये. सो समुद्रः इव गाम्भीर्ये, सो गाम्भीर्यं डेप्त् इत्यर्थः. सो तत्र रामः समुद्रः इव, यथा समुद्रः अत्यन्तं गभीरः तादृशः इति. समुद्रः इव, समुद्र इव.
सः सः जगाम वनं वीरः.
सम्यक्. సో సహ జగామ వనం వీరః సో సహ జగామ సహ వీరః వనం జగామ సో శ్రీరామః వనం గతవాన్ ఇత్యర్థః స్వామినాథన్ మహోదయ
Hello, can you hear me?
Yes, better.
Satye dharmaha iva paraha.
Satye dharmaha iva aparaha. So, satye, ramaha, satya vishaye, aparaha dharmaha, dharmaha yamadharmaha. Saha sarvada satyameva vadatyata eva dharmarajaha iti nama. So, aparaha dharmaha iva. సో అన్య ధర్మరాజ భువమాగత ఇవ ఆసీత్ ఇత్యర్థః
లక్ష్మణే లక్ష్మణః అనుజగామ
సో లక్ష్మణః అనుజగామ లక్ష్మణోనుజగామ సో తం వ్రజంతం ప్రియోభ్రాత లక్ష్మణోనుజగామః సో యదా రామః వనం గతవాన్ తదా లక్ష్మణః అనుజగామ రామం అనుగతవాన్ ఫాలోడ్ గచ్చతి అనుగచ్చతి వదతి అనువదతి సో అను ఇది పృష్ఠతః గమనం టు ఫాలో టు రిపీట్ ఇత్యర్థే భవతి సో అగ్రే అవినాష్ అయితే
రమమాణ వనై త్రయ రమమాణ వనై త్రయ It's a bit difficult, it is.
Where can be the Sandhi?
Sandhi.
Kutra Bhavita Marahatu.
Ramamanaha. Vane Traya. Ramamana plus Vane Traya. Vane.
Ramamanaha Vane Traya.
Vane Traya.
తే తు దేవగంధర్వ సంకాశః రామః లక్ష్మణః సీత సో తే వనే రమమాణాః విహరంతః
ద్యుతిమానః కోన సూయకః ద్యుతిమాన్ కః అనసూయకః
అనసూయకః
కః ప్లస్ అనసూయకః
ఉత్తమం కహ అనసూయకః సో కహ పునః వాల్మీకేః ప్రశ్నే సహ కహ ధర్మజ్ఞః కహ కృతజ్ఞః ఇత్యాది పృచ్చతి సో కహ ద్యుతిమాన్ ద్యుతిః కాంతిః శోభా సో అత్యంతం కాంతియుక్తః కహ అనసూయకః అసూయా యస్య నాస్తి అవిద్యమానా అసూయా యస్య సహ అనసూయకః సో యస్య అన్యేషాం విషయే అసూయా నాస్తి తాదృశః కః ఇతి పృచ్చతి తావదేవ కిల సో దశ వాక్యాన్ని అత్ర కేచన ప్రశ్నాః సంతి వై నాట్ లక్ష్మణో అనుజగామ ఇతి పృచ్చతి అత్ర లక్ష్మణోనుజగామ అత్ర లోపసంధిః న యత్ర లోపః భవతి తత్రైవ అగ్రే స్వరసంధిః న కర్తవ్యః ఇతి నియమః అత్ర ఉత్వం భవతి లక్ష్మణః అనుజగామ సో లక్ష్మణ ఉ అనుజగామ తత్ర అకారస్య ఉకారస్య గుణః లక్ష్మణో అనుజగామ తదనంతరం పూర్వరూపం భవతి లక్ష్మణోనుజగామ ఇతి అనంతరం సచ సర్వగుణోపేతః తత్ర సర్వగుణోపేతః ఇత్యత్ర సర్వగుణ ఉపేతః ఇతి ఛేదః ఉపేతః యుక్తః सर्वगुणयुक्तः एंडोर्ड विथ इत्यर्थः सो सर्वगुण उपेतः तत्र विसर्गसन्धिः नास्ति समस्तं पदं सर्वगुण उपेत गुणोपेत गुणसन्धिः राज शर्मा प्रश्नः अस्ति वा
पूर्वस्मिन् पृष्ठे द्वितीय वा तृतीय वा उदाहरणे पीनवक्षाः विशालाक्षो विशालाक्षः तत्र सन्धिः कथं भवति विशालाक्षः इति अग्रे यदि वक्ष्यमाणः अस्ति तदा एव सन्धिः भवति खलु अत्र केवलं
अत्र न भवति सत्यम् अग्रे वाक्यं नास्ति चेत् न भवति सो यदा अग्रे पीनवक्ष विशालक्षो लक्ष्मीवान् शुभलक्षणः इति पूर्णं वाक्यं सो ततः आगतं केवलम् एतत् फ्रेज् अस्ति चेत् सन्धिः न भवति यदा लक्ष्मीवान् इति अग्रे अस्ति तदा अकारस्य एतत् भवति अग्रिमम् एतत् पश्यामः अग्रिमः सन्धिः विसर्गस्य रेफः कुत्र भवति इति अद्य पश्यामः एतावता अस्माभिः दृष्टं ह्रस्वः अकारः अस्ति अथवा दीर्घः आकारः अस्ति विसर्गात् पूर्वम् ओके सो इफ् यु हाव् विसर्ग आफ्टर् ह्रस्व अकार आर् दीर्घ आकार सो ह्रस्व अकारात् परः विसर्गः अस्ति चेत् दीर्घ आकारात् परः विसर्गः अस्ति चेत् स्वरे मृदुव्यञ्जने वा परे किं भवति सो ह्रस्वस्य अकारस्य उत्त्वं भवति अथवा लोपः सो अकारे मृदुव्यञ्जने परे उत्त्वं भवति अन्येषु स्वरेषु परेषु लोपः भवति इति ज्ञातम् सो विसर्गात् पूर्वं दीर्घः आकारः अस्ति चेत् स्वरे वा मृदुव्यञ्जने वा परे लोपः भवति इति ज्ञातम् सो अन्ये स्वराः सन्ति चेत् सो विसर्गात् पूर्वम् अन्ये स्वराः सन्ति चेत् सो अन्ये स्वराः अनन्तरं विसर्गः अस्ति चेत् स्वरे मृदुव्यञ्जने वा परे रेफः भवति सो एनी स्वर अदर् देन् विसर्ग क्षम्यताम् अदर् देन् अकारम् आकारं विहाय अन्ये केऽपि स्वराः विसर्गात् पूर्वं सन्ति चेत् स्वरे मृदुव्यञ्जने वा परे रेफः भवति इति नियमः उदाहरणं पश्यामः सो हरिः अपि सो इहि इकारः अस्ति सो तत्र रेफे हरिरपि हरिर् अपि हरिरपि सुधीः इति ईकारः विसर्गः स्वरे परे सुधीरिति गुरुः वदति गुरुर्वदति वधूः गच्छति वधूर्गच्छति तैः एव तैरेव गौः उवाच गौरुवाच सो अन्ये स्वराः सन्ति स्वरे परे अथवा मृदु व्यञ्जने परे तस्य रेफः भवति सो विसर्गात् पूर्वम् अकारम् आकारं विहाय अन्ये स्वराः सन्ति अग्रे कोऽपि स्वरः मृदुव्यञ्जनं वा अस्ति तत्र रेफः भवति सो अभ्यासान् कुर्मः अत्र प्रश्नद्वयम्. एकः प्रश्नः हरिः ओम् इत्यस्ति, तत्र कथम् इति. सः क्लेशः एव. बहुत्र हरि ओम् इति प्रयोगः क्रियते, सः व्याकरणरीत्या न शुद्धः. हरिः ओम् इत्युक्ते तत्र रेफः एव भवेत्, तत्र विसर्गः न भवति, विसर्गस्य लोपः अपि न भवति. हरिरोम् इति भवेत्, यदि संहिता न विवक्ष्यते हरिः ओम् इति भवेत्. अतः सः क्लिष्टः प्रयोगे. हरि ओम् इति उच्यते, सः व्याकरणरीत्या अशुद्धः. राज महोदय,
पूर्वस्मिन् पृष्ठे तत्र उदाहरणं दत्तं, लक्ष्मणो अनु अनुगच्छति वा अनुजगाम वा इति. तत्र लक्ष्मणः अनुगच्छति इति पदविच्छेदः, नाम द्वे पदे तत्र लक्ष्मणः प्लस् अनुगच्छति, विसर्गस्थाने उकारः भवति, लक्ष्मण उ अनुगच्छति. तत्र उकारस्य स्थितिः द्वयोर्मध्ये अस्ति, अतः यदि सन्धि क्रियेत तर्हि पूर्वकारस्य एव किमर्थं पराकारस्य अपि कर्तव्यं कर्तुं शक्यते किल?
एकस्मिन् पदे यदस्ति तत्तु अन्तरङ्गं कार्यं भवति. लक्ष्मणः इति एकं पदं, पदस्य अन्तः कार्यम् अन्तरङ्गम्, आदौ तत् क्रियते, अनन्तरं बहिरङ्गकार्यं क्रियते इति व्याकरणस्य नियमः.
ओके ओके, थैंक यू.
अग्रिम इदानीम् अभ्यासं कुर्मः रेफादेशस्य. ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु. महालक्ष्मि, वदतु. इक्षुः अस्ति.
I'm not able to see the screen.
Oh, sorry. Okay.
Ikshuhu asti. Ikshur asti. First one, pratham.
Ikshur asti. Samyak.
Munehe ashramah. Muner ashramah. Second, ditiya.
Muner ashramah. Samyak. Dhanyavadaha. Maheshwari.
Parashuhu Ayudham. Parashurayudham. Aham. Chaturtham.
Chaturtham. Parashurayudham.
Vilambena Agatavati Parantu Aham Idanim योजितं कृतवती.
चिन्ता नास्ति, सम्यगेव.
कपिः आरोहति. कपिरारोहति प्रथमं.
कपिरारोहति, सम्यक् प्रथमं. निर्मला.
नमस्ते भगिनि. अतिथिः प्लस् आगच्छति, अतिथिरागच्छति. अतिथिरागच्छति चतुर्थम्.
अतिथिरागच्छति.
सेतुः प्लस् अत्र, सेतुरत्र. द्वितीयं
द्वितीयं सम्यक् धन्यवादः ललिता सिंह
धन्यवादः सुनुह आह तृतीया सुनुराह
सूनुराह सूनुः आह सूनुराह
श्रीपतिः अस्ति श्रीपतिः रस्ति प्रथम
श्रीपतिरस्ति सम्यक् प्रथमं धन्यवादः उषा
पाणिरयं
पाणिरयं
कवेराशयः द्वितीयं
कवेराशयः सम्यक् धन्यवादः सीता नारायण सीता नारायण न श्रूयते
हलो श्रूयते इन्दुर्दृष्टः इन्दुः दृष्टः तृतीयम्
इन्दुः दृष्टः
हरिर्गच्छति हरिः गच्छति तृतीयम्
सम्यक् हरिर्गच्छति हरिः गच्छति शोभा
अग्नेर्जन्यः अग्नेः जन्यः द्वितीयम्
अग्नेः जन्यः
इशोर्गहीता
इशोर्ग्रहीता
इशोः ग्रहीता
इशोः ग्रहीता
चतुर्थम्
राज शर्मा
हेलो तत्र प्रश्नाः तदेव उकारस्य तत्त्वम् अभवत् अपरम् उचितं वा अनुचितं वा इति एकः परन्तु व्याकरणसम्मतिः
इदानीम् उत्तरं ददातु कृपया अनन्तरं प्रश्नम् अनन्तरं पृच्छतु अभ्यासं समापयामः
अत्र सन्धिविच्छेदन सन्धिविच्छेद वायुः वाति
वायुः वाति
वाति
अग्रिमम्
वेणोर्वादकः वेणोः वादकः
वेणोः वादकः धन्यवादः पद्मनाभन् अय्यर्
नमस्कार
गुरोः गरिमा सम्यक् अग्रिमं पटुः बालः सम्यक् राव महोदय
मुरारिर्जितः
तन्तोर्जालम्
No, can't see the net. Oh, now it comes. Santoh jalam, santor jalam.
Santoh jalam. धन्यवादः अग्रिमं पश्यामः अन्ये केऽपि वक्तुमिच्छन्ति अविनाश वैद्य
अधिर्गात्राणि अद्भिर्गात्राणि फर्स्ट वन
अद्भिर्गात्राणि तृतीय
थर्ड वन तृतीय वन अधिर्गात्राणि अत्रणी बुद्धिः ज्ञानेन बुद्धिर्ज्ञानेन
बुद्धिर्ज्ञानेन
फर्स्ट वन
सम्यक् सो सुभाषितमिदम् अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति विद्या तपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति गात्राणि गात्राणि नाम अवयवाः शरीरम् अद्भिः अद्भिः अप् शब्दः जलम् इत्यर्थः सो जलेन शुध्यन्ति सो शरीरस्य शुद्धिः जलेन भवति मनः सत्येन शुध्यति मनसः शुद्धिः सत्यकथनेन भवति विद्या तपोभ्यां भूतात्मा सो कश्चित् जीवः कश्चिदात्मा विद्यया तपसा च शुद्धिं प्राप्नोति बुद्धिः ज्ञानेन शुध्यति सो बुद्धेः शुद्धिः ज्ञानेन भवति इति मनुस्मृतौ अस्ति उषा व्याधिर्नास्ति नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः सो कामसमः व्याधिः नास्ति सो व्याधिः रोगः सो कामः कदापि न शाम्यति सो अतः तादृशः व्याधिः नास्ति नास्ति मोहसमः रिपुः सो मोहः सो काम क्रोध लोभ मोह मद मत्सर इति षट् अरयः अरिषड्वर्गः इति कथ्यते सो मोहः अटाच्मेण्ट् टुवर्ड्स् समथिङ्ग् सो तत्समः रिपुः नास्ति शत्रुः नास्ति नास्ति कोपसमः वह्निः सो फयर् अग्निः कीदृशः कोपः कोपः आत्मानमपि दहति अन्यानपि दहति अतः कोपसमः वह्निः अग्निः नास्ति नास्ति ज्ञानात् परं सुखम् सो ज्ञानसमं सुखम् अन्यत् किमपि नास्ति इति चाणक्यनीतिदर्पणतः श्लोकः अत्र केचन प्रश्नाः सन्ति पूर्वतनाभ्यासेषु सूनुः इत्यस्य कः अर्थः इति द्वित्रैः पृष्टं सूनुरस्ति इति उदाहरणमासीत् सूनुः पुत्रः तनयः इत्यर्थः आत्मजस्तनयः सूनुः इति अमरकोशे अस्ति सो सूनुः इत्यस्य पुत्रः इत्यर्थः सो अद्भिः अप्शब्दः नित्यबहुवचनान्तः वा इति आम् अप् शब्दः पकारान्तः स्त्रीलिङ्गः नित्यं बहुवचनान्तः आपः अपः अद्भिः अद्भ्यः अद्भ्यः अपाम् अप्सु इति रूपं भवति अन्यः प्रश्नः शास्त्रीयः किमर्थम् इति चेत् तत्र केचन शब्दाः सन्ति तत्तु स्वभाव वशात् नित्यं बहुवचनान्ताः इति कथ्यन्ते. सो केचन शब्दाः अर्थमाश्रित्य बहुवचनान्ताः भवन्ति, यथा त्रिशब्दः सो नित्यं बहुवचनान्तः, तत्तु अर्थमाश्रित्य भवति. अन्ये केचन शब्दाः स्वभावात् नित्यं बहुवचनान्ताः भवन्ति, यथा अप्शब्दः एवं दाराः इति नित्यं बहुवचनान्तः. तत्र कारणम् इति न भवति, तथैव प्रयोगे दृश्यते इत्येव वक्तव्यम्. अन्ये केऽपि एतत् सम्बद्धाः प्रश्नाः सन्ति वा? अद्य कृतः विसर्गस्य रेफः रेफसन्धिः तस्य नियमाः उदाहरणानि, तद्विषये केऽपि प्रश्नाः सन्ति वा? तर्हि अग्रे गच्छामः. काव्यांशेषु सुभाषितानि, एते सत्पुरुषाः परार्थघटकाः, स्वार्थान् परित्यज्ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये तेमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते केन जानीमहे. नीतिशतकस्य श्लोकः, उत्तमः श्लोकः अस्ति. सज्जन पद्धतौ दुर्जनपद्धतौ स्यात्. केऽपि वक्तुमिच्छन्ति अस्य रामनाथ महोदय?
न हस्तं न उन्नीतवान्,
चिन्ता नास्ति. रमेश महोदय?
पदच्छेदः एते सद् पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य परित्यज्य ये सामान्याः तु परार्थम् उद्यमभृतः स्वार्थविरोधेन ये स्वार्थ अविरोधेन ये ते अमि मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये तु घ्नन्ति निरर्थकं परहितं ते केन जानीमहे. सामान्य अर्थः उत्तमजनाः ते सन्ति ये आत्मनः कार्यं त्यागं कृत्वा अन्यान् सहायं कुर्वन्ति. सामान्यजनाः तेभ्यः कार्याणि कुर्वन्ति, अन्यान् अपि सहायं कुर्वन्ति. ये अन्यान् किमपि साधयितुं बाधयन्ति मत्सरभावेन ते ते राक्ष मनुष्य रूपेण राक्षस राक्षसाः
स्वार्थाय स्वार्थसाधनार्थम् अन्येषां हितं निवारयन्ति, विघ्नम् उत्पादयन्ति, ते मनुष्यरूपेण राक्षसाः
राक्षसाः. परन्तु ये विना अर्थं सर्वान् अपकारं कुर्वन्ति, वयं न जानीमहे ते के इति.
किं वक्तव्यम् इत्यपि न ज्ञायते किमर्थं तथा.
वाक्यविश्लेषणं क्रियापदं क्रियापदानि जानीमहे, ज्ञन्ति, निघ्नन्ति. प्रथमविभक्ति एते सत्पुरुषाः परार्थघटकाः ये सामान्याः उद्यमभृतः ये ते अमि मनुष्यराक्षसाः ये ते के इति.
सम्यक्.
द्वितीयविभक्ति स्वार्थान् परार्थं परहितं निरर्थकम्. तृतीयविभक्ति स्वार्थविरोधेन. चतुर्थीविभक्ति स्वार्थाय. लेबन्तप्रत्यय परित्यज्य अभियप्तम्. अन्वयरचना क्रियापदं जानीमहे, के न जानीमहे, वयं न जानीमहे, ते के, ये ते ज्ञन्ति, ये किं ज्ञन्ति, ये निरर्थकं
परहितं
ज्ञन्ति.
परहितं ज्ञन्ति.
परहितं ज्ञन्ति. कीदृशं परहितं निरर्थकं परहितं?
कीदृशं ज्ञन्ति निरर्थकं ज्ञन्ति क्रियायाः विशेषणम्
अस्तु.
विना प्रयोजनं विना ज्ञन्ति इत्यर्थः.
के निघ्नन्ति, ते निघ्नन्ति, ते के अमि मानुष राक्षसाः.
तत्तु अत्र अस्मिन् वाक्ये नास्ति. एतद्वाक्यं तु तावदेव. सो ये निरर्थकं परहितं घ्नन्ति, ते के न जानीमहे इति एव वाक्यं. सो पूर्वतनवाक्यत्रयं पृथक् पृथगेव तेषाम् अन्वयः कर्तव्यः. सो भवन्ति इति सर्वत्र अध्याहारं स्वीकृत्य अथवा के भवन्ति, सत्पुरुषाः भवन्ति.
ये भवन्ति सत्पुरुषाः भवन्ति. कीदृशः सत्पुरुषाः? परार्थघटकाः सत्पुरुषाः. किं भवन्ति एते सत्पुरुषाः स्वार्थान् परित्यज्य भवन्ति?
कथं परार्थघटकाः परित्यज्य, स्वार्थान् परित्यज्य परार्थघटकाः, ये स्वार्थान् परित्यज्य परार्थघटकाः एते सत्पुरुषाः भवन्ति इति वाक्यं. सो भवन्ति के भवन्ति सत्पुरुषाः, एते सत्पुरुषाः भवन्ति. सो के सत्पुरुषाः भवन्ति, ये परार्थघटकाः. कथं परार्थघटकाः? परित्यज्य. किं परित्यज्य? स्वार्थान् परित्यज्य. अवगतं वा? सो आदौ सत्पुरुषाः भवन्ति इति वाक्यं. सो के ये इति भागः तत्र योजनीयः. पुनः तथैव द्वितीयवाक्ये
ये भवन्ति सामान्य सामान्याः भवन्ति
के सामान्याः
के सामान्याः परार्थ मुद्यत मुद्यमभृतः सामान्यः
परार्थम् उद्यमभृतः उद्यमभृतः नाम कार्यं कुर्वाणाः अन्येषां निमित्ते ये कार्यं कुर्वन्ति
केन भवन्ति स्वार्थविरोधेन भवन्ति
कथम् उद्यमभृतः उद्यमभृतः इत्यत्र एव अन्वयः कथं कार्यं कुर्वन्ति स्वार्थ अविरोधेन परार्थं कार्यं कुर्वन्ति ते सामान्याः भवन्ति सो ये स्वार्थ अविरोधेन परार्थम् उद्यमभृतः ते सामान्याः भवन्ति अग्रे तृतीयं वाक्यं
तृतीयं के भवन्ति ये भवन्ति ये के मानुष राक्षसाः भवन्ति ये किं भवन्ति परहितं मानुष ते मानुष राक्षसाः परहितं भवन्ति कथं भवन्ति
ये निघ्नन्ति ते मानुष राक्षसाः भवन्ति सो ये ते ये निघ्नन्ति नाशयन्ति ते मानुष राक्षसाः सो किं निघ्नन्ति किं निघ्नन्ति ते
परहितं निघ्नन्ति
के निघ्नन्ति परहितं निघ्नन्ति किमर्थं निघ्नन्ति
स्वार्थाय
स्वार्थाय निघ्नन्ति
निघ्नन्ति
के भवन्ति तेमि मानुषराक्षसाः भवन्ति के मानुषराक्षसाः इति चेत् ये निघ्नन्ति ते मानुषराक्षसाः किं निघ्नन्ति परहितं निघ्नन्ति किमर्थं निघ्नन्ति स्वार्थाय निघ्नन्ति स्वार्थाय परहितं निघ्नन्ति तेमि मानुषराक्षसाः भवन्ति अन्वयः
अन्वयः सत्पुरुषाः ये आत्महितं न चिन्तयित्वा सहायं कुर्वन्ति
ते सत्पुरुषाः
ते सत्पुरुषाः भवन्ति ये स्वार्थ अविरोधेन परार्थम् उद्यम भृतः भवन्ति ते सामान्याः ये स्वार्थाय परहितं निघ्नन्ति ते मानुष राक्षसाः ये निरर्थकं परहितं घ्नन्ति ते के इति वयं न जानीमहे वक्तुं शक्नुमहे व्याकरणांशः एतद् शब्दः पुल्लिङ्गप्रथमाविभक्ति बहुवचन सत्पुरुषाः पुल्लिङ्गप्रथमाविभक्ति बहुवचन स्वार्थान् पुल्लिङ्गद्वितीय द्वितीयविभक्ति बहुवचन ये यद् शब्दः पुल्लिङ्ग प्रथमाविभक्ति बहुवचन सामान्याः पुल्लिङ्ग प्रथमाविभक्ति बहुवचन परार्थं पुल्लिङ्ग द्वितीयविभक्ति एकवचन उद्यमभृतः पुल्लिङ्ग प्रथमाविभक्ति बहुवचन
सकारान्तः पुल्लिङ्गः उद्यमभृत् शब्दः प्रथमाविभक्ति बहुवचनम्
बहुवचन स्वार्थाविरोधेन पुल्लिङ्ग तृतीयविभक्ति एकवचन अमी सकारान्त अदस् शब्दः पुल्लिङ्ग प्रथमाविभक्ति बहुवचन स्वार्थाय पुल्लिङ्ग चतुर्थी विभक्ति एकवचन ज्ञन्ति विज्ञन्ति लट् लकार प्रथमपुरुष बहुवचन
सः धातुः
न जानामि
हन् धातुः हन्ति
हन्ति अस्तु जानीमहे आत्मनेपदि उत्तमपुरुष बहुवचन
ज्ञाधातोः आत्मनेपदे उत्तमपुरुषे बहुवचनं जाने जानीमहे जानीमहे सम्यक् धन्यवादः सो अत्र त्रया चतुर्णामपि वाक्यानां पृथक् पृथक् अन्वयः भवति सो प्रतिवाक्यम् एकं डिक्लरेशन् सो एते सत्पुरुषाः भवन्ति अथवा सन्ति अध्याहारसमये उभयोः अध्याहारः कर्तुं शक्यते समानः अर्थः सो एते सत्पुरुषाः भवन्ति के इति चेत् ये परार्थघटकाः सो यत्र यत्र यत् शब्दः अस्ति तत्र वाक्यखण्डयोः एव अन्वयः यु शुड् रिमेम्बर् दट् वेर् एवर् वि हेव् यत् शब्द तत्र किं भवति वाक्यद्वयं वस्तुतः भवति यच्छब्दः तच्छब्दः उभयोः समानार्थक्यं कल्पयति सो दट् विच् अण्ड् दट् यत्र भवति सो तत्र अन्वयकरणे वाक्यखण्डानामेव अन्वयः भवति सो एते सत्पुरुषाः भवन्ति के सत्पुरुषाः भवन्ति ये स्वार्थान् परित्यज्य परार्थघटकाः ते सत्पुरुषाः इति अन्वयः अतः एते सत्पुरुषाः भवन्ति के ये परार्थघटकाः सो ये अन्येषां कार्यं साधयन्ति पर अर्थघटकाः घटयन्ति साधयन्ति अन्येषां कार्यं साधयन्ति ते सत्पुरुषाः सज्जनाः किं कृत्वा परार्थघटकाः परित्यज्य विहाय त्यक्त्वा किं विहाय स्वार्थान् परित्यज्य सो स्वस्य कार्यं त्यक्त्वा अन्येषां कार्यं ये साधयन्ति ते सज्जनाः इति कथ्यन्ते इति प्रथमं वाक्यं द्वितीयं वाक्यं ते सामान्याः भवन्ति सो सामान्यजनाः इति उच्यन्ते के सामान्यजनाः उद्यमभृतः उद्यमं बिभर्ति इति उद्यमभृत् नाम कार्यकारी यः कार्यं करोति सो कार्यकारिणः सो किं निमित्तं कार्यकारिणः परार्थम् अन्येषां कृते कार्यं कुर्वन्ति कथम् अन्येषां कृते कार्यं कुर्वन्ति स्वार्थ अविरोधेन सज्जनाः स्वार्थमपि त्यक्त्वा कुर्वन्ति सामान्याः तु स्वार्थाविरोधेन स्वकार्यस्य बाधः यथा न भवेत् तथा अन्येषां कार्यं कुर्वन्ति अस्माकं कार्यम् आदौ कृत्वा अनन्तरं शक्तिः अस्ति चेत् धनम् अस्ति चेत् समयः अस्ति चेत् अन्येषां साहाय्यं कुर्वन्ति सो सामान्याः तथा तृतीयं ते अमी मानुषराक्षसाः भवन्ति सो तत्र ते अमी इत्यस्य विशिष्य पृथक् पृथक् अर्थः नास्ति एतादृश प्रयोगः संस्कृते बहुधा दृश्यते. सोयम्, स एषः इत्यादि. सो ते मि, सो ते अमि इति सर्वनामद्वयं, ते इत्येव अर्थः. सो फार् एम्फसिस् तथा प्रयोगः क्रियते. सो ते मि मानुषराक्षसाः, मनुष्यरूपेण राक्षसाः भवन्ति. के? ये निघ्नन्ति, नाशयन्ति. किं निघ्नन्ति? परहितं निघ्नन्ति. अन्येषां हितम्, अन्येषां कृते यदुत्तमं तत् नाशयन्ति. किमर्थं नाशयन्ति? स्वार्थाय, स्वकार्यसिद्ध्यर्थम् अन्येषां हितं ये नाशयन्ति ते मानुषराक्षसाः भवन्ति. सो थर्ड् लेवल्. चतुर्थमपि अस्ति, ये घ्नन्ति, नाशयन्ति. किं? परहितं, परेषां हितं नाशयन्ति. निरर्थकं, तत्र तेषामपि प्रयोजनं न भवति. वृथा पीडनबुद्ध्या ये निरर्थकं, कारणं विना परहितं नाशयन्ति, ते के न जानीमहे. तेषां कृते किं वक्तव्यम् इत्यपि न ज्ञायते. ते तु अत्यन्तम् अधमाः इत्यर्थः. सो अत्र सामान्यतः सर्वे शब्दाः प्रथमाविभक्तौ एव सन्ति. सो उद्यमभृतः इति तकारान्तपुल्लिङ्गः प्रथमाविभक्तौ बहुवचनं. भृत्, भृतौ, भृतः इति. सो परार्थं, परेभ्यः इदं परार्थं. सो तत्र क्रियायाः विशेषणं तत्. अतः द्वितीया विभक्तिः. अर्थः चतुर्थ्यर्थः. सो फार् अदर्स् इत्यर्थः, किन्तु पद अर्थशब्देन सह समासः भवति. परार्थम् उद्यमभृतः. सो परेषां कारणेन इत्यर्थः. सो अमी इति अदस् शब्दस्य प्रथमाविभक्तौ बहुवचनरूपं पुल्लिङ्गे. असौ, अमू, अमी. असौ इत्यस्य सामान्यतः सः इत्येव अर्थः. सो देर् आर् सटल् डिफ्रेन्सेस् बिट्वीन् यूसेज् आफ् प्रनौन्स्. तत् शब्दः, अदस् शब्दः, इदं शब्दः इत्यादि. सामान्यतः अयं, सः, एषः इत्यादि अर्थः. सो असौ, अमू, अमी, अदस् शब्दस्य प्रथमाविभक्तौ बहुवचनम्. मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये. घ्नन्ति, निघ्नन्ति इत्यत्र उभयत्र हन् धातोः लट्लकारे प्रथमपुरुषे बहुवचनरूपम्. हन्ति, हतः, घ्नन्ति इति. जानीमहे ज्ञाधातोः लट्लकारे उत्तमपुरुषे बहुवचनं. जाने, जानीमहे, जानीमहे. सो अन्ये केऽपि प्रश्नाः सन्ति वा अस्य श्लोकस्य विषये? अग्रे गच्छामः. सो अग्रिमः श्लोकः. क्वचित् पृथ्वीशय्यः, क्वचिदपि च पर्यङ्कशयनः, क्वचित् शाकाहारः, क्वचिदपि च शाल्योदनरुचिः, क्वचित् कन्धाधारी, क्वचिदपि च दिव्याम्बरधरः, मनस्वी, कार्यार्थी, न गणयति दुःखं न च सुखम्. अन्वयदृष्ट्या अत्यन्तं सुलभः श्लोकः, किमपि नास्ति. अन्तिमस्य वाक्यस्य एव अन्वयः करणीयः. अन्यत् सर्वमपि कीदृशः इत्यनेन सर्वमपि भवति. ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु. रामानन्दन् महोदय.
नमस्कारः. प्रयत्नं करोमि. क्वचित् पृथिवीशय्यः, क्वचित् अपि जश्व सन्ति, च पर्यङ्कशयनः, क्वचित् शाकाहारः, జశ్వ అండ్ చుత్వ సారీ శుచ్త్వ అండ్ చుత్వ
ఛత్వ
ఛత్వ
క్వచిత్ శాఖాహార
శాఖాహార క్వచిత్ అపి జశ్వ చ శాల్యోదన రుచిహి క్వచిత్ కంతాధారి క్వచిత్ అపి జశ్వ సంతి చ దివ్యాం దివ్యాంబర దరః విసర్గ మనస్వీ కార్యార్థి న ఘనయతి దుఃఖం న చ సుఖం. వాక్య విశ్లేషణం క్రియాపదం న ఘనయతి ప్రథమా విభక్తి పృథివీశయ పర్యంకశయన శాఖాహార శాల్యోదన రుచి కంతాధారి దివ్యాంబరధర మనస్వీ కార్యార్థి. ద్వితీయ విభక్తి దుఃఖం సుఖం అన్వయం న చ కశ్చిత్ క్వచిత్ అపి. ఆకాంక్షక్రమేణ అన్వయ న గణయతి. కిం కిం న గణయతి దుఃఖం సుఖం చ న గణయతి. కహ న గణయతి కార్యార్థి న గణయతి. కీదృశః మనస్వీ పునః కీదృశః క్వచిత్ పృథివీశయః దెన్ కీదృశః ఓవర్ అండ్ ఓవర్ అగైన్ క్వచిత్ క్వచిత్ పర్యంకశయనః క్వచిత్ శాకాహారః క్వచిత్ శాల్యోదన రుచిః క్వచిత్ కంతాధారి క్వచిత్ దివ్యాంబరధరః అన్వయః సహ అండర్స్టూడ్ ఆర్ మనస్వీ కార్యార్థి క్వచిత్ పృథివీశయః క్వచిత్ అపి పర్యంకశయనః క్వచిత్ శాఖాహారః క్వచిత్ అపి శాల్యోదన రుచిః క్వచిత్ కన్యాధారి క్వచిత్ అపి దివ్యాంబరధరః తథాపి దుఃఖం సుఖం చ న గణయతి. సామాన్యార్థ చికీర్షు కదాచిత్ భూమౌ నిద్రాం కరోతి కదాచిత్ మంచే శయనం కరోతి కదాచిత్ అల్పాహారం ఖాదతి కదాచిత్ రాజా ఇవ భోజనం కరోతి కదాచిత్ కంతాని వస్త్రాని ధరతి కదాచిత్ దివ్యాని అంబరాని ధరతి తథాపి కార్యం పూరయితుం సుఖం వా దుఃఖం న అనుభవతి. వ్యాకరణాంశః క్వచిత్ అపి చ న అవ్యయం పృథివీశయః పర్యంకశయనః శాఖాహారః దివ్యాంబరధరః అకారాంత పుల్లింగ ప్రథమా ఏకవచనం శాల్యోదన రుచిః இகாராந்த புல்லிங்க பிரதமா ஏகவச்சனம். கந்தாதாரி மனஸ்வி காரியார்த்தி இளந்தக புல்லிங்க பிரதமா ஏகவச்சனம். கணயதி கணதாத்து லட்லகார பரஸ்மைபதம் பிரதம புருஷ ஏகவச்சனம். துக்கம் சுகம் அகாராந்த நபும்சகலிங்க த்விதீய ஏகவச்சனம்.
தத்ர சதேவ அன்வயஹ அத்ரைவ கார்யார்த்தி. சோ காரியம் கர்த்தும் யஹ இச்சதி கீத்ருஷஹ மனஸ்வி மனஸ்வி தீரஹ. சோ யஹ அசலஹ. சோ யஹ அசலதயா காரியம் கர்த்தும் இச்சதி தாதுஷஹ தீரஹ காரியார்த்தி துக்கம் சுகம் ச ந கணயதி. சோ காரிய கரணே துக்கம் கஷ்டம் வா சுகம் ஆனந்தம் வா ந கணயதி ந பரிகணயதி ந லக்ஷயதி. அர்த்தாத் துக்கம் பவதி இதி ந த்யஜதி அதவா சுகம் பவதி இதி புனஃ புனஃ ந கரோதி. சோ காரியஸ்ய சித்திஹி யாவத் பவதி தாவத் கரோதி. சோ மத்யே கீத்ருஷம் பவதி கீத்ருஷி பரிஸ்திதிஹி இதி வர்ணயதி. க்வசித் க்வசித் இத்யஸ்ய குத்ரசித் அதவா கதாசித் இத்யர்த்தஹ. சம்டைம்ஸ் பிருத்வீ ஷய்யஹ பிருத்வீ பூமிஹி பூமௌ சயனம் கரோதி. கேவலம் பூமிஹி தத்ர ஆச்சாதகம் அபி கிமபி நாஸ்தி ததைவ நித்ராதி. க்வசிரபி ச பர்யங்க சயனஹ பர்யங்கஹ மஞ்சஹ. சோ தத்ராபி சம்யக் மிருது ஷய்யா பவதி. சோ பர்யங்க சப்தஸ்ய மஞ்சார்த்தே அபி பிரயோகஹ அஸ்தி. ஷத்யா த பெட் த சாஃப்ட் பெட் தஸ்யாபி அர்த்தஹ அஸ்தி. சோ தத்ர நித்ராம் கரோதி. க்வசித் சாகாஹாரஹ சாகானி வெஜிடபிள்ஸ். சோ கேவலம் ததேவ ரா ஃபுட் அந்யத் கிமபி நாஸ்தி. ஃபலாஹாரஹ சாகாஹாரஹ க்வசிதபி ச ஷால்யோதன ருசிஹ ஷால்யோதனஹ. சோ ஷாலி இதி ஹை குவாலிட்டி ரைஸ் ஷால்யோதனஹ. சோ யதா பாஸ்மதி ரைஸ் இத்யாதி பவதி சோ தாதிருஷ்ய ஷால்யோதனஹ இதி நாம. சோ தாதிருஷம் அன்னம் அபி காததி. கதாச்சித் பகு உத்தமம் போஜனம் லப்யதே கதாச்சித் கேவலம் கிஞ்சித் காதிதும் லப்யதே. க்வசித் கந்தாதாரி கந்தா நாம ஜீர்ணம் வஸ்திரம். சோ ராக்ஸ். சோ கந்தாதாரி க்வசிதபி ச திவ்யாம்பரதரஹ கதாச்சித் து பகு உத்தமானி ராஜாரஹாணி வஸ்திராணி தரதி இத்யர்த்தஹ. தாதிருஷஹ அபி மனஸ்வீ காரியார்த்தி ந கணயதி துக்கம் ந ச சுகம். வியாக்கரணாம்சா அஸ்து மகோதயேன உக்தாஹ. கேபி சந்தேகாஹ சந்தி வா? எனி க்வெஸ்சன்? அது அகிரிமார்த்தம். சோ கதர்த்தித்தியாபி தைரியவத்தே நக்கியதே தைரியகுண பிரமாஷ்டும் அதோமுகஸ்யாபி கிருதஸ்ய வன்ஹே நாதஷிகாயாந்தி கதாசிதேவ. சோ தைரியவத்தே புனஹ தைரியஸ்ய விஷயே ஸ்லோகஹ. கதர்த்தித்தியாபி யத்யபி தஸ்ய அபமானனம் க்ரியதே நிந்தா க்ரியதே ததா அபி தைரிய குணஹ பிரமாஷ்டும் ந சக்யதே தஸ்ய தைரியம் ந நஷ்யதி தைரியம் நாசயிதும் ந சக்யதே. உதாரணம் ததாதி அதோமுகஸ்யாபி கிருதஸ்ய வன்ஹேஹ. வயம் அக்னிம் அக்னிஹி இத்யுக்தே அக்னேஹ ஜ்வாலா லாண்டர்ன் ஆர் சம்திங். அதோமுகம் குர்மஹ சேதபி சிகாஹ கதாசிதபி அதஹ ந யாந்தி. சோ தஸ்ய சிகா சர்வதா உபரி ஏவ ஜ்வலதி. த ஃப்ளேம் ஆல்வேஸ் பாயிண்ட்ஸ் அப்வர்ட்ஸ். கேண்டல் ஏகம் அஸ்தி சிக்கவர்த்திகா. தத் வயம் அதோமுகம் கிருஹீமஹ சேதபி வன்ஹேஹ சிகா து உபரி ஏவ ஜ்வலதி. ததா கஷ்டித் தீரஹ தஸ்ய அபமானனம் நிந்தா க்ரியதே சேதபி தஸ்ய தைரியம் ந நஷ்யதி சஹ அப்ரைட் உத்திதஹ ஏவ பவதி இத்யர்த்தஹ. नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी गुणी च गुणरागी च विरल सरलो जनः. सो अगुणी गुणिनं न वेत्ति येषां स्वयं गुणाः न सन्ति ते अन्येषु गुणाः सन्ति चेदपि न जानन्ति. सो दे के नाट् रेकग्नैज् वर्च्यूस् ओर् क्वालिटीस् इन् अदर्स्. गुणी गुणिषु मत्सरी अस्तु तर्हि तस्यापि गुणाः सन्ति चेत् किं भवति? मात्सर्यं भवति. अन्येषां गुणाः ज्ञायन्ते किन्तु तत्र मत्सरः भवति. सो गुणी च गुणरागी च. सो यस्य स्वयं गुणाः सन्ति गुणरागी अन्येषां गुणानपि वाञ्छति तादृशः सरलः जनः विरलः. Okay, it is very rare to find people who have good qualities themselves and who also appreciate qualities in others without envy or jealousy. Gunita gunaragita virala sarano janaha. Antimam satyam tapo jnanam ahimsatam cha vidvat pranamam cha sushilatam cha एतानि यो धारयते स विद्वान् न केवलं यः पठते स विद्वान्. सरलम् एते सर्वे गुणाः तेषाम् आचरणं यः करोति सः पण्डितः अथवा विद्वान् केवलम् अध्ययनेन न भवति. पूर्वमपि एतादृशः श्लोकः दृष्टः किल किं तत् शास्त्राण्यधीत्यापि भवन्ति मूर्खाः इति तादृशः एव श्लोकः. सो एतत् श्लोकत्रयं गृहकार्यम् अग्रिमशनिवासरे कुर्वन्ति चेत् अलं. सो श्वः वर्गः अस्ति किन्तु श्वस्तनवर्गार्थम् एतत् करणीयम् इति नास्ति. केचन प्रश्नाः सन्ति अहं संक्षिप्य अनन्तरं प्रश्नानाम् उत्तरं दास्यामि. अद्य विसर्गसन्धिः रेफः कुत्र भवति इति दृष्टं. सो सुभाषितेषु सुभाषितद्वयम् अधीतम्. एते सत्पुरुषाः परार्थघटकाः इति क्वचित् पृथ्वीशय्यः इति. अग्रिमः वर्गः श्वः प्रातः समाने समये सार्धपञ्चवादने वर्गः भवति. इदानीं येषां ये गन्तुमिच्छन्ति ते गन्तुमर्हन्ति. अन्येषां प्रश्नाः सन्ति चेत् तिष्ठन्तु, प्रश्नानाम् उत्तरं दास्यामि. पृथ्वीशय्यः इत्यत्र कः समासः इति. पृथ्वीशय्या यस्य सः पृथ्वीशय्यः बहुव्रीहिसमासः. पृथ्वीशय्या यस्य सः पृथ्वीशय्यः. द्वितीयश्लोके किमर्थं वाक्यानां पृथक् पृथक् अन्वयः नास्ति इति. अत्र सर्वमपि कार्यार्थी मनस्वी कार्यार्थी इत्यस्य विशेषणरूपेण अस्ति. कीदृशः कार्य क्वचित् पृथ्वीशय्यः सन् क्वचिदपि पर्यङ्कशयनः सर्वमपि मनस्वी कार्यार्थी कार्यार्थी इत्यस्य विशेषणं मनस्वी इति अन्यत् सर्वमपि अतः मिलित्वा एव अन्वयः. पृथग् अन्वयः कुत्र क्रियते? यत्र एकं वाक्यं भवति तस्य पृथग् अर्थः भवति तदा पृथग् अन्वयः. अत्र तु विशेषणत्वेन सर्वेषामपि अन्वयः सम्भवति. अत्र फुल् स्टाप् इत्युक्ते अयं दण्डः इति उच्यते. सो दण्डः इट् इस् नाट् अ फुल् स्टाप् रैट्. सो इत्युक्ते काव्येषु श्लोके केवलं पादविच्छेदं न अर्ध श्लोकार्धे अर्धः श्लोकः यदा समाप्तः तदा एकः दण्डः श्लोकद्वये दण्डद्वयम् इति रूढिः तावदेव तत्र वाक्यभेदः भवति इति तु नास्ति सो वस्तुतः सर्वमपि एकमेव वाक्यम् एकः श्लोकः इत्युक्ते मिलित्वा एव पठ्यते अनन्तरं तत्र मध्ये वाक्यानि सन्ति वा इति तु अर्थम् आश्रित्य भवति सो द ब्रेक् द सिङ्गल् लैन् एण्ड् डबल् लैन् डु नाट् इण्डिकेट् अ सेण्टेन्स् ब्रेक् इट् इस् ओन्ली पद्यस्य अर्धभागः समाप्तः पद्यं समाप्तं श्लोकः समाप्तः इत्येव तेन उच्यते अतः तेन वाक्यभेदः ज्ञातुं न शक्यते कदाचित् एकस्मिन् एव पङ्क्तौ वाक्यद्वयं भवेत् कदाचित् सर्वमपि मिलित्वा एकं वाक्यं भवेत् क्वचित् किञ्चित् एतयोः मध्ये भेदः कः इति प्रश्नः क्वचित् इति वस्तुतः क्व इति कुत्र इत्यर्थे एव प्रयोगः क्व इत्यस्य कुत्र नाम क्वचित् इत्युक्ते कुत्रचित् इत्यर्थः सो समवेर् आर् अट् सम टैम् सो कदा इत्यस्यापि इत्युक्ते सः अर्थः आधारः सो क्वचित् इत्यस्य कदाचित् इत्यर्थे एव प्रयोगः कदाचित् कुत्रचित् एतयोः अर्थे किञ्चित् इति तु लिटिल् इत्यर्थे प्रयुज्यते अग्रे अहर्निशम् अत्र अहशब्दः अव्ययं वा इति प्रश्नः नास्ति अहन् इति शब्दः अस्ति अहः अहनि अहानि इति दिनम् इत्यर्थः निशा इत्यस्य रात्रिः इत्यर्थः अहन् इति शब्दः अव्ययं न क्वचित् काचित् मध्ये कः भेदः काचित् इति तु चित् चन इति प्रत्ययद्वयं किं शब्दात् क्रियते सो किं शब्दस्य भिन्नभिन्नरूपेभ्यः चित् चन इति प्रत्ययद्वयं क्रियते अनिर्दिष्टः अर्थः सो तत्र यदा चित् अथवा चन उपयुज्यते तत्र निश्चयः नास्ति एतदेव इति निश्चयः नास्ति कश्चित् काचित् किञ्चित् इति प्रथमविभक्तौ ओके कश्चित् सम्बडि पुल्लिङ्गे काचित् सम्बडि स्त्रीलिङ्गे किञ्चित् सम्बडि आर् संथिङ्ग् नपुंसकलिङ्गे बहुवचने अपि भवति केचित् काश्चित् सर्वासु विभक्तिषु भवति कस्मैचित् ददामि कस्माच्चित् स्वीकृतवान् इत्यादि एवम् अव्ययानि यानि सन्ति सो कुत्रचित् कदाचित् इत्यादि भवति क्वचित् इति तत्र मूलपदस्य यः अर्थः तस्य अनिर्दिष्ट ता सो सो इट्स् नाट् स्पेसिफिक् सो यु आर् जनरलैजिङ्ग् द मीनिङ्ग् आफ् द वर्ड् ओके वेन् कदा इत्युक्ते वेन् कदाचित् अट् सम् टैम् अट् सम् अन्स्पेसिफैड् टैम् इत्यर्थः सो का इत्युक्ते हू सम्बडि काचित् इत्युक्ते सम्बडि अन्स्पेसिफैड् इत्यर्थः
Thank you.
अत्र अन्या एका भगिनी तदा एकं प्रश्नं पृष्टवती. तत्र मया मध्ये उक्तम् अदस् शब्दस्य तच्छब्दस्य च सूक्ष्मः भेदः अस्ति इति. तत् किम् इति पृष्टं. तत्र एका कारिका अस्ति, तत्र चत्वारि सर्वनामपदानि सन्ति. इदं शब्दः, एतद् शब्दः, अदस् शब्दः, तत् शब्दः. तेषां भेदविषये काचित् कारिका अस्ति. कारिकायाम् अर्थभेदः उच्यते. सर्वत्र तादृशः अर्थः एव भवति इत्यत्र प्रमाणं नास्ति. इट् इस् नाट् दट् मैन्यूट् डिफरेन्स् इन् मीनिङ्ग्स् इस् आल्वेस् फालोड्. कारिकायां यदस्ति तद्वदामि, कदाचित् उच्यते. इदमः प्रत्यक्षगतौ. सो इदं शब्दः प्रत्यक्षतया यः अस्ति. सो अयम् इत्युक्ते मम पुरतः यः अस्ति, तस्य इदं शब्देन निर्देशः. समीपतरवर्ति चैतदो रूपम्. सो समीपतरं, सो प्रत्यक्ष अत्यन्तं समीपे यः अस्ति, तत्र एतत् शब्दस्य प्रयोगः. एषः, एता, एषा इति तु अत्यन्तं समीपे, प्रत्यक्षम् अत्यन्तं समीपे ये सन्ति तेषां निर्देशे तस्य प्रयोगः. अदसस्तु विप्रकृष्टे. अदशब्दस्य प्रयोगः दूरे विद्यमानानां विषये. तदिति परोक्षे विजानीयात् इत्यस्ति. तत् शब्दस्य प्रयोगः परोक्षे भवति. परोक्षे नाम यत् प्रत्यक्षं न. सो न दृश्यते साक्षात्, तस्य विषये तत् शब्दस्य प्रयोगः इति कारिकायाम् उच्यते. अस्माभिः इदानीं तु सामान्यतः प्रयोगे सः, एषः इत्यादि वि यूस् इट् फार् फार् अण्ड् नियर् डैरेक्ट्लि. सो अयं भेदः सामान्यतः न पाल्यते. श्लोकम् एकं क्षणम्. अयं श्लोकः यदि इच्छन्ति तर्हि, इदमस्तु सन्निकृष्टे समीपतरवर्ति च एतदः रूपम्. एतदो समीपतरवर्ति चैतदो रूपम्. अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् इति कारिका. मूलं न ज्ञायते. सामान्यतः व्याकरणग्रन्थेषु पठ्यते. सो मूलम् अन्वेष्टव्यम्. इदमस्तु सन्निकृष्टे. सन्निकृष्टे समीपे, प्रत्यक्ष प्रत्यक्षं यदस्ति समीपं, समीपतरवर्ति. सो वेरि क्लोज्. सो क्लोजर् इस् एतदः रूपम्. अदसस्तु विप्रकृष्टे. अदस् इति तु दूरे, तदिति परोक्षे इति अस्ति कारिका. इदमः प्रत्यक्षगतौ इत्यपि पाठभेदः मया दृष्टः अस्ति. सो अत्र इदमस्तु सन्निकृष्टे इत्यस्ति, इदमः प्रत्यक्षगतौ इत्यपि कुत्रचित् दृष्टम् अस्तु. अन्ये प्रश्नाः. हरिः ओम् इत्यत्र वेदेषु हरिः ओम्, सत्यं सम्प्रदाये हरिः ओम् इत्येव प्रयोगः दृश्यते. सन्धिः न क्रियते, लोपः अपि नास्ति. लोपः तु न भवत्येव, हरि ओम् इति न भवति. यदि सन्धिः कर्तव्यः तर्हि तत्र रेफ एव भवति. सामान्यः प्रयोगः तु हरिः ओम् इति पृथग् एव, तत् ओंकारस्य पृथगेव निर्देशः सम्प्रदायः. अन्ये प्रश्नाः इदानीं. रामानुजं महोदय प्रश्नः.
नमस्ते मान्ये. ऐ हाव् कपल् आफ् क्वश्चन्स्. उद्यमभृतः
that's a takaranta pullinga. How do I know? I mean, Bhagavat also is takaranta pullinga. How do I know which one to use?
Tatra vat matup shabdaha yatra matubantaha ye bhavanti. Tatra vishkaryam bhavanti. Tadeva shabdarupana madhyane kevalam takarantaha iti na. तत्र यथा भवता एव उक्तम् इन्नन्तः इति नकारान्तेषु अन्नन्तः इन्नन्तः इत्येवं क्रमेण अध्ययने अस्य ज्ञानं भवति. भगवत् इति मतुबन्तः, सो मतुबन्तानां तादृशं रूपं भवति, भिन्नं रूपं भवति. अन्येषां तकारान्तानां भिन्नं सामान्यं रूपं भवति. मरुत् मरुतौ मरुतः इति सामान्यतः तकारान्तानां रूपम्. मतुबन्तानां तु विशिष्य तत्र नुमागमः इत्यादि उगित् अस्ति. मतु इत्यत्र उकारस्य इत्सम्य तेन कारणेन विशिष्टं रूपं भवति. अतः तस्य ज्ञानार्थं किञ्चिदिव प्रत्ययानां ज्ञानं भवति चेत् तद् ज्ञातुं शक्यते.
ओके, I'll give a try. Another question. Vid karyarthi, vidyarthi, are they samasa and then taddidanta? Is that how it is?
Satya. Samasa hasti anantaram tatra ini pratyaya.
Okay, okay. Thank you.
Vidyam arthayate kadachit kritanta api kartum shakyate va vidyarthi. Vidyam arthayate iti vidyarthi. So then you can directly do a tadhya, sorry, krit pratyaya to get the vidya arthaha yasya saha iti tu vidyarthaha ityeva bhavati. So atra vidyam arthayate iti kurmaha set. Just one moment, I'll refer to a kosha. So in such cases, a kosha is usually very useful because it will give you the which quality. So vidyartha and ini. Umhayatha api shakyate ham ekavaram drishtva vadami. There are two possible ways of deriving these. Avagatam tu samasam kritva tadhitah kartum shakyate. Vidya arthaha. विद्यार्थः, विद्या एव अर्थः, विद्यार्थः विद्यार्थः अस्य अस्ति इति विद्यार्थिन् इति तद्धितः. भवा विद्याम् अर्थयते, विद्याम् अर्थयितुं शीलं यस्य सः, सो तत्र कृत् प्रत्ययः भवति, निनि प्रत्ययः. यथा शीतभोजी इत्यादिषु भवति तथा. सो उभयतापि शक्येत. कोशं दृष्ट्वा वदामि कथं सामान्यतः कथं दीयते व्युत्पत्तिः.
ओके, धन्यवादः. थैंक यू सो मच.
अन्येषां प्रश्नाः सन्ति चेत् हस्तम् उन्नयन्तु. राज.
तथैव तथा बहु सन्देहौ. एकं तु समुद्र इति बहुशः प्रथमं प्रथमपृष्ठे अथवा द्वितीयपृष्ठे दृष्टं. समुद्र तत्र उचितं वा अनुचितं वा इति न जानामि, परन्तु तत्र समुद्रे इव अपि भवितुं शक्यते, मतलब भवितुम् अर्हति समुद्रः इव अपि च भवितुम् अर्हति वा?
शक्यते, केवलं परमस्ति चेत् उभयथा अपि शक्यते. प्रसङ्गं दृष्ट्वा अर्थः ज्ञातव्यः, तत्र सप्तम्यर्थः अस्ति वा प्रथमार्थः अस्ति वा. प्रसङ्गमाश्रित्य केवलं सन्धिः तु उभयथा समुद्रे इव इत्यत्रापि समुद्र इव इत्येव रूपं भवति, समुद्रः इव इत्यस्यापि समुद्र इव इत्येव भवति.
परन्तु मया लिखितं तत्र pronunciation, ucharanam.
Tadaya nakaraha nakaraha yatra asti tata tatyaiva ucharanam purvam kriyate. Vanhihi brahma madhyannaha purvanhaha ityadishu sarvatra. Tatra keshanchit etad asti karaniyam va na va iti. Sampradayam ashritya ucharane तथा एव क्रियते इत्येव उत्तरं तत्र व्याकरणे तद्विषये किमपि नोच्यते अतः तेन साधयितुं न शक्यते मतभेदाः सन्ति
परन्तु तत्र शब्दम् अथवा पदमनुसृत्य यदि वक्तव्यमस्ति हकारोत्तरवर्ति नकारम् इति वक्तव्यः अथवा नकारोत्तरवर्ति हकारम् इति वक्तव्यः
हकारोत्तरवर्ति नकारः इत्येव तत्र सन्देहः नास्ति तत्र हकारः एव आदौ इत्युक्ते आनुपूर्व्यां हकारः तदनन्तरं नकारः इत्येव उच्चारणे वैलक्षण्यम् अस्ति
नाम यदि 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 अस्माभिः उच्यते वह्निः इति तत्र दोषं वा साधु वा असाधु वा तत्र
इफ् यु एक्सेप्ट् द वैदिकोच्चारणसम्प्रदाय एस् प्रमाण सः दोषः यदि न अङ्गीकरोमि इति उच्यते तर्हि दोषः नास्ति इति वक्तव्यम्
वैदिकमते तु वह्निः
उच्चारणे अस्माकं वेदोच्चारणम् अनन्तरं शिक्षाग्रन्थाः एव प्रमाणम् अतः ते तु तथैव उच्चारयन्ति वह्निः ब्रह्मा ब्राह्मणः पूर्वाह्नः मध्याह्नः इत्येव उच्चारणं भवति अतः तदेव क्रियते इदानीं अस्मि पर्सनलि मया तदेव क्रियते तदेव अङ्गीक्रियते यदि तत्तु ग्रूप् सम्प्रदायः अपि अस्ति यदि भवतः एतदस्ति तदा तदङ्गीकर्तुं शक्यते ये वदन्ति तत्र एतन्नास्ति अस्तु अहं ब्रह्मा इत्येव उच्चारणं करोमि इत्युक्ते तत्तु निवारयितुं न शक्यते बहवः पृच्छन्ति बहुभिः अयं प्रश्नः सर्वैः पृच्छ्यते यतोहि संस्कृते सामान्यतः यथा लेखनं तथैव उच्चारणं भवति इति नियमः अस्ति अतः बहुभिः पृच्छ्यते इट् इस् वन् आफ् द इडियोसिंक्रसीस् आफ् द लेङ्ग्वेज् अन्यासु भाषासु बहुधा तथा दृश्यते लेखने उच्चारणे व्यत्ययः संस्कृते कदाचित् दृश्यते अस्तु अन्यः अन्तिमः प्रश्नः भवान् कुशली वा भवती कुशलिनी वा कुशलः कुशलं तत्तु कुशलशब्दः अस्ति कुशलशब्दस्य क्षेमं मङ्गलम् इत्यर्थः सो तेस्ति सो कुशलम् अस्य अस्ति इति कुशली कुशलम् अस्याः अस्ति इति कुशलिनी इति प्रयोगः भवति अतः कुशली कुशलिनी इति साधु तत्र कुशलः इत्यपि प्रयोगः अस्ति कुशलम् अस्य अस्ति इति कुशलः सो दट् इस् आल्सो प्रेसेण्ट् ऐ मीन् दट् इस् आल्सो देर् अतः उभयथापि कुशलः कुशलशब्दस्य यदा कुशलः इति प्रयोगः क्रियते तदा तत्र प्रवीणः निपुणः इत्यर्थः भाति सो सी द वन् कुशलशब्द इस् मङ्गलं श्वश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभं भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् इति अमरकोशे अस्ति कुशलं क्षेमं सो दे आर् पर्यायपद इट् मीन्स् द सेफ्टि इत्यर्थः सो कुशलम् अस्य अस्ति ही हू हेस् दट् सो ही हू इस् सेफ् ही हू इस् हेपी इस् काल्ड् कुशली कुशलिनी सो अन्यः कुशल शब्दः अयं कुशलः इत्युक्ते अयं भाषणे कुशलः इत्यर्थः रूढ्या भाति. सो दट् कुशल इस् एक्चुअली डिराइव्ड फ्रॉम कुशान लाति. सो इट्स अ वर्ड विच वाज डिराइव्ड फ्रॉम ही हू कट्स कुश ग्रास. सो इट इज इन कन्वेंशन स्किल्ड इत्यर्थे कुशल शब्दस्य प्रयोगः क्रियते. किन्तु कुशली इत्यर्थेपि कुशल शब्दस्य प्रयोगः कदाचित् दृष्टः श्रुतः अस्ति. सो ऐ हाव् हर्ड् कुशली इत्यर्थे कुशल शब्दस्य प्रयोगः दृष्टः. तत्र द्रष्टव्यं कोशाः द्रष्टव्याः कस्मिन् अर्थे कथं प्रयोगः इत्यत्र अहं दृष्ट्वा सूचयामि. सो पदद्वयं कुशली एवं विद्यार्थी उभयमहं दृष्ट्वा सूचयामि. अन्ये केऽपि प्रश्नाः सन्ति वा? एनी अदर् क्वश्चन्? अत्र समापयामः. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ, मम पाहि गुरो. श्वः सार्धपञ्चवादने वर्गः भविष्यति.